सप्तशी दुर्गा सप्तशती प्रथमोऽध्याय विनियोगः। ओम प्रथम चरित्रस्य ब्रह्मा ऋषि महाकाली देवता गायत्री छन्दः नन्दा शक्ति रक्तदन्तिका बीजम् अग्निस्तत्त्वम् ऋग्वेदः स्वरूपम् श्रीमहाकाली प्रीत्यर्थे प्रथम चरित्र जपे विनियोगः। ध्यानम् ओम खड्गं चक्र गदेषु चाप परिघाञ्चूलम् भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनाम् सर्वाङ्गभूषावृताम् नीलाश्मद्युतिमास्य पाददशकाम् तेरे महाकालिकाम् यामस्तौ स्वपिते हरौ कमलजो हन्तुम् मधुम् कैतभम्। ॐ नमश्चण्डिकायै ॐ ऐं मार्कण्डेय उवाच। पावर्णिः सूर्यतनयो यो मनु कथ्यते स्तमः निशामय तदुत्पत्तिम् विस्तराद्गदतो मम महामायानुभवेन यथा मन्वन्तराधिपः स बभूव महाभागः सावर्णितनयो रवे स्वारोति चेन्तरे पूर्वम् चैत्रवंश समुद्भवः सुरतो नाम राजा भूत् समस्ते क्षितिमण्डले तस्य पालयतः सम्यक् प्रजापुत्राणि वौरसान् बभूवुः शत्रवो भूपा कोला विध्वंसिनस्तदा तस्य तैरभवत् युद्धमति प्रबलदण्डिनः न्यूनैरपि सतैर्युद्धे कोला विध्वंसिभिर्जितः ततः स्वपुरमायातो निजदेशाधिपो भवत् आक्रान्तस्तमभागस्तैस्तदा प्रबलारिभिः अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः कोशो बलम् चापहृतम् तत्रापि स्वपुरे ततः ततो मृगया व्याजेन हृतस्वाम्यः स भूपतिः एकाकी हयमारुह्य जगामगनम् वनम् स तत्राश्रममद्राक्षी द्विजवर्यस्य मेधसः प्रशान्तश्वापदकीर्णम् मुनिशिष्योपशोभितम् तद्धौ कञ्चित् सकालम् च मुनिना तेन सत्कृतः इतश्चेतश्च विचरन्तस्मिन् मुनिवराश्रमे सोऽसिं तयस्तदा तत्र मम स्वाकृष्टचेतनः मत्पूर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हि तत् वृत्तैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा न जाने स प्रधानो मे शूरहस्ति सदा मदः मम वैरिवशम् जातः काम् भोगानुपलप्स्यते ये ममानुगता नित्यम् प्रसादधनभोजनैः अनुवृत्तिम् ध्रुवम् तेज्य कुर्वन्त्यन्यमहीभृताम् असम्यव्ययशीलैस्तैः कुर्वद्भिः सततम् व्ययम् सञ्चितः सोऽसि दुःखेन क्षयम् कोशो गमिष्यति एतच्चान्यश्च सततम् चिन्तयामास पार्थिवः तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्शत स पृष्टस्तेन कत्वं भो हेतुश्चागमनेतृका अशोकैव कस्मात्त्वं दुर्मना इव लक्ष्यसे इत्याकर्ण्यवतस्तत् भूपतेः प्रणयोदितम् प्रत्युवाच सतम् वैश्यः प्रश्रयावनतो नृपम् वैश्य उवाच समाधिर्नाम वैश्योऽहमुत्पन्न धनिनाम् कुले पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः सोऽहम् न वेद्मि पुत्राणाम् कुशलाकुशलात्मिकाम् प्रवृत्तिम् स्वजनानाम् च दानानाम् चात्र संस्थितः किन्नु तेषाम् गृहे क्षेममक्षेमम् किन्नु साम्प्रतम् कथम् ते किन्नु सद्वृत्ता दुर्वृत्ताः किन्नु मे सुताः राजोवाच निरस्तो भवान् लुब्धैः पुत्रदारादिभिर्धनैः तेषु किम् भवतः स्नेहमनुबध्नाति मानसम् वैश्य उवाच एवमेतद्यथा प्राह भवानस्मद्गतम् वच किम् करोमि न बध्नाति मम निष्ठुरताम् मनः यैश्चन्त्यद्यपि तृस्नेहम् धनलुब्धैर्निराकृतः पते स्वजनहार्दम् च हार्दितेष्वेव मे मनः किमे तन्नाभिजानामि जानन्नपि मामते यत् प्रेम प्रवणम् चित्तम् विगुणेष्वपि बन्धुषु तेषाम् कृते मे निःश्वासो दौर्मनश्चन्त जायते करोमि किम् जन्म मनस्ते स्वप्रीतिषु निष्ठुरम् मार्कण्डेय उवाच सन्तौ सहितौ विप्रतम् मुनिम् समुपस्थितौ समाधिर्नाम वैश्योऽसौ स च पार्थिव सत्तमः कृत्वा तु तौ यथा न्यायम् यथार्हम् तेन संविदम् उपविष्टौ कथाः काश्चित् चक्रतुर्वैश्यपार्थिवौ राजोवाच भगवन् स्वामहम् प्रष्टुमिच्छाम्येकम् वदस्व तत् दुःखाय यन्मे मनसः प्रचित्तायत्तताम् विना मम सङ्गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम अयम् च निकृतः पुत्रैर्दारैर्भित्यैस्तथोद्धितः स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथा प्रति एवमेष तथाहम् च द्वावप्यत्यन्तदुःखितौ दृष्टदोषेऽपि विषये मम त्वाकृष्टमानथौ तत्किमेतन्महाभागयन्मो ज्ञानिनोरपि ममाच्य च भवत्येषा विवेकान्धस्य मूढता ऋषिरुवाच ज्ञानमस्ति समस्तस्य दन्तोर्विषयगोचरे विषयश्च महाभागयाति चैवम् पृथक् पृथक् जीवान्धा प्राणिनः केचिद्रात्रा बन्धास्तथा परे केचिद्दिवा तथा रात्रौ प्राणिनः तुल्यदेष्टया ज्ञानिनो मनुजाः सत्यम् किन्तु तेन हि केवलम् यतो हि ज्ञानिनः सर्वे पशु पक्षि मृगादयः ज्ञानम् च तन्मनुष्याणाम् यत्तेषां मृगपक्षिणां मनुष्याणां च यत्तेषां तुल्यमन्यत्तथो भयो यानेऽपि सति पश्यैतान् पतङ्गान् चावचञ्चुषु क्षणमोक्षादृतान् मोहात् पीड्यमानानपेक्षुधा मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति लोभाद्यत्युपकाराय नन्यतान् किम् न पश्यसि तथापि ममतावर्ते मोहगर्ते निपातिताः महामाया प्रभावेण संसारस्थितिकारिणा तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः महामाया हरेश्चैषा तया सम्मोह्यते जगत् ज्ञानिनामपि चेतांसि देवी भगवती सा बलादाकृष्य मोहाय महामाया प्रयच्छति तया विसृज्यते विश्वम् जगदेतच्चराचरम् तैषा प्रसन्ना वरदा नृणाम् भवति मुक्तये सा विद्या परमा मुक्तेर्हेतुभूता सनातनी संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी राजोवाच भगवन् का हि सा देवी महामायेत्याम् भवान् ब्रवीति कथमुत्पन्ना सा कर्माश्चास्य किम् द्विज यत्प्रभावाच सा देवी यत्स्वरूपाय उद्भवा तत्सर्वम् श्रोतुमिच्छामि तत्तो ब्रह्मविदाम् वर ऋषिरुवाच नित्यैव सा जगन्मूर्ति तया सर्वमिदम् ततम् तथापि तत्समुत्पत्तिर्बहुधा श्रूयताम् मम देवानाम् कार्यसिद्ध्यर्थमाविर्भवति सा यदा उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते योगनिद्राम् यदा विष्णुर् जगत्येकार्णवीकृते आस्तीर्यशेषमभजत् कल्पान्ते भगवान् प्रभु तदा द्वावसुरौ घोरौ विख्यातौ मधुकैकभौ विष्णुकर्णमनोद्भूतौ हन्तुम् ब्रह्माणमुद्यतौ सनाभिकमले विष्णोः स्थितो ब्रह्म प्रजापति दृष्ट्वा तावसुरौ चोग्रौ ससुप्तम् च जनार्दनम् तुष्टावयोगनिद्राम् तावेकाग्रहृदयस्थितः विबोधनार्थाय हरे हरिनेत्रकृपालयाम् विश्वेश्वरीम् जगद्धात्रीम् स्थितिसंहारकारिणीम् निद्राम् भगवतीम् विष्णोरकुलाम् तेजसः प्रभु ब्रह्मोवाच स्वाहा त्वम् स्वधा त्वम् हि स्वशक्तारः स्वरात्मिका सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता अर्धमात्रा स्थिता नित्या यानुचर्या विशेषतः त्वमेव सन्ध्या सावित्री त्वम् देवि जननी परा त्वयैतद्धार्यते विश्वम् त्वयैतत्सृज्यते जगत् त्वयैतत्पाल्यते देवि त्वमत्यन्ते च सर्वदा विसृष्टौ सृष्टिरूपा त्वम् स्थितिरूपा च पालने तथा संहृतिरूपान्ते जगतोऽस्य जगन्मय महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवती महादेवी महासुरी प्रकृतिस्त्वम् च सर्वस्य गुणत्रयविभाविनी कालरात्रिर्महारात्रिर्मोहरात्रि శ్రేష్ట దారుణ త్వం శ్రీ త్వమీశ్వరీ త్వం హృత్వం బుద్ధిర్బోధ లక్షణ లజ్జా పుష్టిస్తథా తుష్టిస్త్వం శాంతి శాంతిరేవ చ ఖడ్గిని శూలిని ఘోరా గదిని చక్రిణి తథా శంఖిని చాపిని బాణభుషుండి పరిఘాయుధా సౌమ్యా సౌమ్యతరా శేష సౌమ్యేభ్యపతి సుందరి పరా పరాణాం పరమా త్వమేవ పరమేశ్వరి యచ్చ కించిత్ క్వచిద్వస్తు సరసద్వాఖిలాత్మికే తస్య సర్వస్య యా శక్తి సా త్వం కిం స్తూయసే తదా యయా త్వయా జగత్స్రష్టా జగత్పాత్యక్తియో జగత్సోపి నిద్రావశం నీత తత్వాం స్తోతుమేశ్వర విష్ణు శరీరగ్రహణమహమీశానేవ చ కారితాస్తే యతో తస్వాం స్తోతుం శక్తిమాన్ భవేత్ అత్వమిత్తం ప్రభావైస్తైరుదారైర్దేవి సంస్కృతా మోహయైతౌ దురాధర్షావసురౌ మధుకైటభౌ ప్రబోధం చ జగత్స్వామీ నీయతామచ్యుతో లఘు బోధస్య క్రియతామచ్చ అంతుమేతౌ మహాసురౌ శిరువాచ ఏవం సుతా తదా దేవీ తామసే తత్ర వేధసా విష్ణోః ప్రబోధనార్థాయ నిహంతుం మధుకైటభౌ నేత్రాశ్చ నాసికా బాహు హృదయేభ్యస్తథోరసః నిర్గమ్య దర్శనే తస్థౌ బ్రహ్మణోజ్జక్త జన్మనః ఉత్తస్థౌ చ జగన్నాథ తయా ముక్తో జనార్దనః ఏకాండవే హి శయనాత్ తతః తదదిశేతౌ మధుకైటభౌ దురాత్మానావతి వీర్య పరాక్రమౌ దూధరక్తే క్షణావక్తుం బ్రహ్మాణం జనితోద్యమౌ సముత్థాయ తతస్తాభ్యాం యుయుధే భగవాన్ హరిః పంచవర్షసహస్రాణి బాహూ ప్రహరణో విభుః తావత్యతిబలోన్మత్తౌ మహామాయా విమోహితౌ ఉక్తవంతౌ వరోస్వస్తు మ్రియతామితి కేశవం శ్రీభగవానువాచ భవేతామద్య మే తుష్టౌ మమ వధ్యావుభావపి ఇమన్యేన వరేణాత్ర ఏతావద్ధి వృతం మమ శిశిరువాచ వంచితాభ్యామితి తదా సర్వమాపోమయం జగత్ విలోక్యతాభ్యాం గదితో భగవాన్ కమలేక్షణ ఆవాం జహిన యత్రోర్వి సలిలేన పరిప్లుతా ఋషిరువాచ తథేత్యుక్త్వా భగవతా శంఖచక్రగదాభృతా కృత్వా చక్రేణ వైచ్ఛిన్నే గగనే శిరసీతయో ఏవమేషా సముత్పన్నా బ్రహ్మణా సంస్తుతా స్వయం ప్రభావమస్య దేవ్యాస్తు భూయః శృణు వదామి తే ఐం ఓం శ్రీమార్కండేయ పురాణే సావర్ణికే మన్వంతరే దేవీ మహాత్మ్యే ప్రథమ శ్రీదుర్గార్పణమస్తు శ్రీదుర్గార్పణమస్తు శ్రీదుర్గార్పణమస్తు